घेरण्ड संहितायां चतुर्थोपदेशः अथ प्रत्याहार प्रकरणम्। घेरण्डुवाच अथ तासं प्रवक्ष्यामि प्रत्याहारकम् उत्तमम्। यस्य विज्ञानमात्रेण कामादिरिपुनाशनम्। यतो यतो नेश्चरति मनश्चञ्चलम् अस्थिरम्। ततस्ततो नियम्येतत् आत्मन्येव वशं नयेत्। पुरस्कारं तिरस्कारं शुश्राव्यं दुःश्रुतं तथा। मनस्तस्माद् नियम्येतत् आत्मन्येव वशं नयेत्। सुगंधे वापि दुर्गंधे घ्राणेषु जायते मनः। तस्मात् प्रत्याहरेदेतद् आत्मन्येव वशं नयेत्। मधुराम्लतिक्तादिर्रसान्याति यदा मनः तदा प्रत्याहरेत्तेभ्यः आत्मन्येव वशं नयेत्। इति श्रीघेरण्डसंहितायां घेरण्डचण्डिकापालिसंवादे प्रत्याहारवर्णनं नाम चतुर्थोपदेशः।